ओम नमो भगवते वासुदेवाय। अथ षोडशोऽध्यायः दैवासुरसंपद विभागयोगम्। श्रीभगवानुवाच अभयं सत्त्वसंशुद्धि ज्ञानयोग व्यवस्थिति दानं दमश्च यज्ञश्च श्रद्धायस्तप आर्जवं अहिंसा सत्यमक्रोधं त्यागः सन्तिरपैशुनं दयाभूतेश लोलुप्तं मार्दवं ह्रीरचापलं तेजःक्षमादृतिशौचं अद्रोहो नातिमानिता भवन्ति सम्पदं दैवीं अबीजातेश भारतं दम्भोदर्पो विमानश्च क्रोधपारुष्यमेव च अज्ञानं चाभिजातश्च पार्थसम्पदमासुरीं दैवीसम्पदविमोक्षाय निबन्धाय सुरीमता मासु च सम्पदं दैवीं अभिजातोऽसि पण्डवं दौभूतसर्गलोकेऽस्मिन् दैव आसुर एव च दैवो वितरसा प्रोक्तम् आसुरं पार्थमे शृणुं प्रभृतिं च निवृतिं च जनान विदुरासुरां न शौचं नापि चाचारो न सत्यं तेषु भिद्यते असत्यं अप्रतिष्ठं ते जगदाहुरनीश्वरं अपरस्परसम्भूतं किमन्नत्कामहेतुकं एतं दृष्टिङ्गभष्टभ्या नष्टात्मानोऽल्पबुद्धयां प्रभवन्त्वग्रकर्माणां क्षयाय जगतो हिता कामं आसीत दुःस्फुरं दम्भमानमदन्विता मोहाद्गृहीत सद्ग्राहन् प्रवर्तन्ते शुचिप्रभा चिन्तङ्गपरिमेयं च प्रलयन्तुपासिता कामोपभोगपरमा एतावदिति निशिता आशापाशसतिर्बद्धा कामं क्रोधोपरायणाम् ईयन्ते कामभोगार्थम् अन्यायेनार्थसञ्चयन् ईदमद्यमया लब्धम् ईमं प्रप्से मनोरथम् ईदम् अस्ति तदपि मे भविष्यति पुनर्धनम् असौ मय्या हतशत्रु हन्निशे चापरानपि ईश्वरोऽहं अहं भोगी सिद्धोऽहं बलवान् सुखी अड्यो बीजनवानस्मि क्वन्यस्ति सदृशो मया जख्येदास्यामि मोदिष्याम् इति ज्ञानं विमोहिताम् अनेकचितबिभ्रन्ता मोहजालसमम्भृतां प्रसक्ता कामभोगेषु पतन्ति नरकेषु च आत्मसम्भावितः स्तब्धा दानमानमदन्विदां जजन्ते नाम जज्ञस्ते दम्भेना विधिपूर्वकम् अहङ्कारं बलं दर्पं कामं क्रोधं च संसिता ममात्मं परदेहेषु प्रद्विषन्तो व्यसूयकाम् तानहं द्विषिता क्रूरान् संसारेषु नराधमान् क्षिप्पाम्यजश्रमंसुवान् आसूरिष्वेव जोनिषु आसूरिं जोनिमापन्ना मूढा जन्मनि जन्मनि मामं प्रापेव कौन्तेयं ततो जन्त्यदमङ्गतिं त्रिविधं नरकस्वेदं द्वारं न शनमात्मनं कामः क्रोधस्तथा लोभं तस्मत् एतत्रयं त्यजेत् एतर्वे मुक्तकौन्तेयं तमं द्वारैतिभ्यन्नरम् आचरत्यात्मनं श्रेयं स्ततो जाति परङ्गतिं जशास्त्रविधिमुसृज्य वर्तते कामकारतम् न ससीदिङ्गवाप्नोति न सुखं न परङ्गतिं तस्मत्सहस्रं प्रमाणं ते कर्जकर्जव्यवस्थितौ यन्त्वा शास्त्रविधानोक्तं कर्मं कर्तुर्मिहाहर्षी। ॐ तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे दैवासुरसम्पदविभागयोगो नाम षोडशोऽध्यायः। ॐ श्रीकृष्णार्पणमस्तु। शुभं भवतु, शुभं भवतु, शुभं भवतु।